नमस्ते, आदौ प्रश्नाः सन्ति वा? गतवर्गे पाठितेषु अंशेषु प्रश्नाः सन्ति चेत् पृच्छन्तु। प्रथमं प्रश्नाः सन् सन्ति वा? Wow, there's no questions. Okay, great.
No questions for now.
Okay, tarhi ahameva pruchami tarhi. That's fine. Okay, Misham.
Mahodaya just joined.
Ka?
Malli.
Malli, also, yeah. Bhavati Ekadashi. I noted down your name. That's fine. Okay. So let me share my screen. Tanhi. I'm hoping everyone can see my screen here.
Yes.
Is it clear enough?
Yeah.
Padithum shaktumati kila? Okay, good. ओके द्वितीयाविभक्तिरूपाणि एषः इति पदं प्रथमाविभक्तौ अस्ति, तदेव पदं द्वितीयाविभक्तौ एतम् इति भवति। सर्वदा अहम् एषः इति पदस्य रूपं द्वितीयाविभक्तौ भवति इति वदामि, किन्तु सामान्यतया तथा न वक्तव्यम्। अवगमनाय एव अहं तथा वदामि। अस्तु, एषः इति पदमस्ति, द्वितीयाविभक्तौ एकवचनरूपमस्ति एतम्, द्विवचनरूपम् एतौ, बहुवचनम् एतान्। प्रथम कृपया पठतु अग्रे। सः
नटराजः
रङ्ग
तं तौ तान्
अयम्
अयम् इमम् इमौ इमान् एषा एताम् एते एताः सा तां ते ताः
तिष्ठतु तिष्ठतु एकनिमिषं तिष्ठतु कृपया। अस्तु, तत्र अयम् इति पदस्य इमं द्वितीयविभक्तौ एकवचने इमौ, द्विवचने इमान्, बहुवचने उदाहरणाय अहम् इमं बालकं पश्यामि, अहम् इमं स्यूतं नयामि, अहम् इमं इमं चषकं गृह्णामि, एवं रीत्या वाक्यानि। ओके, तथैव अहम् एतां बालिकां पश्यामि, अथवा ते एतां बालिकां पश्यन्ति, ते एतां बालिकां पश्यन्ति, तादृशाः रूपाणि। पश्यन्तु, एषा इति पदस्य प्रथमाविभक्तौ बहुवचने रूपं किम्?
एषा एताः
एताः उत्तमं। यथा एषा बालिका गच्छति, बहुवचने किं स्यात् तद्वाक्यम्? एताः बालिकाः गच्छन्ति। अस्तु, अस्मिन् वाक्ये सर्वे कृपया शृण्वन्तु, एताः बालिकाः गच्छन्ति। अस्मिन् वाक्ये एताः इति पदं प्रथमाविभक्तौ बहुवचने अस्ति, एताः बालिकाः गच्छन्ति। किमर्थं? बालिकाः एव अत्र कार्यं कुर्वन्ति। अस्तु, बालिकाः एव कार्यं कुर्वन्ति। किं कुर्वन्ति बालिकाः? बालिकाः गच्छन्ति। के ते, काः काः बालिकाः? एताः बालिकाः, एताः बालिकाः गच्छन्ति। अस्मिन् वाक्ये एताः इति पदं प प्रथमाविभक्तौ अस्ति, बालिकाः अपि पदं प्रथमाविभक्तौ एव अस्ति. अस्तु, अधुना अहम् एताः बालिकाः पश्यामि. अस्मिन् वाक्ये एताः इति पदं द्वितीयविभक्तौ अस्ति, तथैव बालिकाः इति पदमपि द्वितीयविभक्तौ एव अस्ति. भेदः अस्ति, उभयोः वाक्ययोः भेदः अस्ति. प्रथमे वाक्ये एताः बालिकाः इति प्रथमाविभक्तौ, द्वितीये वाक्ये एताः बालिकाः इति द्वितीयाविभक्तौ. भेदः स्पष्टः वा?
न
स्पष्टः. एताः बालिकाः बहुवचनम् अस्तु.
तर्हि एवम् अस्तु, एकनिमिषम्, अत्र लिखितमस्ति वा, पश्यन् अस्मि अहम्. अस्तु, उदाहरणाय अहमत्र लिखामि, प्रायः तेन इतोपि स्पष्टं स्यात्. एकनिमिषम्. एकनिमिषम् एकनिमिषम्. दृश्यते किल मम स्क्रीन्? अत्र पश्यन्तु, एताः बालिकाः, प्रथमे वाक्ये एताः बालिकाः गच्छन्ति. काः गच्छन्ति? बालिकाः गच्छन्ति. अतः बालिकाः इति पदं प्रथमाविभक्तौ अस्ति. उदाहरणाय नटराजः पिबति. कः पिबति? नटराजः पिबति. अतः नटराजः इति पदं प्रथमाविभक्तौ अस्ति. तावत् स्पष्टं किल?
स्पष्टं
स्पष्टम्.
एव्रिवन् एल्स्? There's like 10 people, please.
Yeah.
Okay. So now, yes. Look at the other sentence. I say, Aham Natarajam Pashyami. Okay? Aham Natarajam Pashyami. Asmin vakya kim asti? Natarajaha iti padam dhitiya bhakta asti, because I'm looking at Natarajan, right? He becomes the karma padam. He becomes the object of the sentence. So far clear, right?
Yeah.
Adhuna, ākārānta śrīlinga padeshu bahuvachane, viseshataya bahuvachane. Udāharanāya, aham latām pashyāmi. Tama, mahilām pashyāmi. Aham mahilām pashyāmi. Pratidvani hasi, krupaya sarve mute madhya bhavantu. Aham महिलां पश्यामि, अथवा महिला गच्छति, एवं भवतु आदौ. महिला गच्छति, का गच्छति? महिला गच्छति. अतः महिला इति पदं पुनः प्रथमाविभक्तौ अस्ति. किन्तु द्वितीयवाक्ये अहं महिलां पश्यामि इत्यत्र महिलाम् इति पदं द्वितीयविभक्तौ अस्ति. किमर्थं? तद् आब्जेक्ट् अस्ति किल, कर्मपदमस्ति वाक्ये, इत्यस्मात् तत्पदं द्वितीयाभक्तौ अस्ति. एतावत् स्पष्टं किल? अधुना आकारान्तस्त्रीलिङ्गपदानां बहुवचनरूपं प्रथमाविभक्तौ बहुवचनरूपं तथैव द्वितीयाविभक्तौ बहुवचनरूपं समानमस्ति. प्रथमभक्तौ अस्ति रूपं बालिकाः. बालिकाः गच्छन्ति इति वाक्यं. के गच्छन्? काः गच्छन्ति? बालिकाः गच्छन्ति. अतः तस्मिन् वाक्ये बालिकाः इति पदं प्रथमाविभक्तौ एव अस्ति. अहं बालिकाः पश्यामि इत्यत्र अहं पश्यामि, बट् वाट् एम् ऐ लुकिङ्ग् एट्? बालिकाः. सो अस्मिन् वाक्ये बालिकाः इति पदं द्वितीयाभक्तौ अस्ति. because there is no difference in the form. Rupam samanam asti. Only by looking at the sentence you would know if the what is it, if the form is in prathama vibhakti or dvitiya vibhakti. Okay.
Okay. So here there is no balikam, is it? I should not say balikam. I still have to say balikam.
Dvitiya vibhakti ekavachanam is still balikam, but bahuvachanam.
Bahuvachanam.
Bahuvachanam is balakau. I mean balikau. Balikam.
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 Yeah, that's what he's saying, it's not. That's what
balikaha, I'm saying. Balikaha. Balikaha.
Then it will be same. You mean aham balikaha pashyami.
No, hang on. I thought that would be simple enough and I didn't honestly create a blank slide. But anyways, let me change the layout and put a blank slide for you. Yes. Maybe it will be clear. Blank slide. Okay, look at it like this. Okay? Balika iti padam. Prathama vibhakti ekvachanam.
Yes.
Okay? Dvivachanam kim asti?
Balikau.
Balikam. Hey, dvivachanam, dvivachanam, balika padasya.
Balikam.
Balike.
Balike.
Balike. Balike. Bahuvachanam kim asti?
Balika.
Balika.
Adhuna, pratyekam api vakyam vadantu kopi kurpaya?
Balikaj. Sorry?
Pratyekam vakyam vadantu. Can you say a sentence for each word? Balika?
Balika gachati.
Balika
gachati. Balika apanam gachati.
No, no. It's just two words.
Balika gachati. Balika gachati. Balike gachataha. Balikaha gachati.
Balikaha gachati.
Uttamam. Etavata svashtam. Perfect. Adhuna pashyantu. Balika.
Oh, okay. Okay, good. Dvitiya vibhakti is only for ekavachanam. That's what you're saying.
Do not say it is only for. The rupam is okay. Different only for. You have dvitiya vibhakti for ekavachanam.
Okay.
Sarve kripayam, sarve kripayam, vidvate bhavantu. ओके सो आकारांत स्त्रीलिंग पदेषु केवलं प्रथमा एकवचने एव रूपं भिद्यते द्विवचने तथैव बहुवचने च रूपं समानमस्ति अतः सः बालिकां पश्यति अथवा सः बालिकां नयति अधुना कश्चन पुरुषः अस्ति सः पुरुषः बालिकां नयति अस्तु एकां बालिकां नयति इति अर्थः द्वितीयवाक्ये सः बालिके नयति इत्यत्र अत्र बालिकाद्वयम् अस्ति अस्तु बालिकाद्वयं सः नयति इति अर्थः सः बालिकाः पश्यति इत्यत्र पुनः अत्र बालिकात्रयमस्ति सः बालिकात्रयं पश्यति इति अर्थः स्पष्टं वा अधुना ओके वन् डौन्
सारि स्टिल् लिटिल् बिट् कन्फ्यूस्ड् सो बालिका एण्ड् बालिका बोथ् आर् एकवचनं दट्स् वाट् यु आर् सेयिङ्ग् रैट्
Where is it ekavachanam? This one in here, right?
Yes. Yes, that's right. Balika, that's an ekavachanam. And balikam is also ekavachanam.
Okay, but the vibhakti is different. This is prathama vibhakti.
This is dvitiya vibhakti. Dvitiya vibhakti. So you are trying to say that for shvilinga padam, for only for this word or for now?
I said shvilinga padam. So
shvilinga padam, ekavachanam and dvivachanam, the vibhakti only changes and dvitiya vachanam and bahu vachanam will not change, they remain same.
Yes.
Did I understood correctly?
Yes.
Okay.
So in dvitiya vibhakti dvivachana rupam tathaiva बहुवचनरूपं समानमस्ति आकारान्तस्त्रीलिङ्गपदेषु. Someone else said they didn't understand. Who was it? Sorry.
Dushankar, I got it now. Yep.
You got it?
Yep. Thank you.
Okay, you're not shy, right? Yes, you got it, right? Yeah. This is very, very important.
Yeah. No, I was saying last week you uploaded dvitiya.pdf. Mm-hmm. On page 9, it's clearly mentioned for all forms. Like, there's a table created.
Yeah, sure. Janami.
So it's clear from that also, because that gives you a holistic view of all of these forms for second vibhakti.
Hey, I create a much fancier one with all these colors. That's black and white.
No, but then it's split. I mean, that one pager gives a view of
all true.
The...
Yes. Yeah. But that page is, like you said, the 9th page, right? So I was a little concerned. I didn't know how many of them would actually truly go to the 9th page and do it. So
that's what I'm actually doing. What I'm going to do is I will upload it later, because that helped me. It's just one view and you get all these forms clearly. So I can upload that maybe. That might be helpful.
Definitely.
I went up to the 9th one, but then I just stopped myself with only the Ekavachanam for now. Because I thought we will be covering the Bahuvachanam others in the subsequent classes. So
good. Either works. As long as you understand the concept, it doesn't matter.
Okay.
Etata spashtam kila?
Spashtam.
Tathaiva pashyantu avagachantu cha eshaha iti padasya kimasti Ekavachanrupam etam. अत्र पश्यन्तु एषः इति पदमस्ति एतं रूपमस्ति किन्तु द्विवचने तदेव रूपमस्ति एतौ द्विवचने रूपं समानमस्ति प्रथमाविभक्तौ द्वितीयाविभक्तौ च द्विवचनरूपसाम्यमस्ति साम्यं नाम समानम् इट् डजन्ट् चेञ्ज् इट् इस् द सेम् वर्ड् अस्तु उदाहरणाय पुनः अत्र वयं पश्यामः ओके अत्र पश्यन्तु बालकौ गच्छतः ओके बालकौ गच्छतः कौ गच्छतः बालकौ गच्छतः अतः प्रथमे वाक्ये बालकौ इति पदं प्रथमाविभक्तौ अस्ति अहं बालकौ पश्यामि अहं पश्यामि अहं किं पश्यामि अथवा अहं कं पश्यामि बालकौ पश्यामि अतः द्वितीये वाक्ये बालकौ इति पदं द्वितीयाविभक्तौ अस्ति केवलं प्रथम तथैव द्वितीया अस्तु प्रथमाविभक्तौ तथैव द्वितीयाविभक्तौ च द्विवचनरूपं समानमस्ति पुंलिङ्गपदेषु పుంలింగపదేషు కేవలం ద్వివచన పదం సమానమస్తి ద్వివచన రూపం సమానమస్తి ప్రథమ విభక్తో ద్వితీయ విభక్తో చ ద్వివచన రూపం సమానమస్తి పుంలింగపదేషు స్త్రీ ఆకారాంత స్త్రీలింగపదేషు ఆకారాంత స్త్రీలింగపదేషు యథా మాల ఇత్యత్ర ద్వివచన రూపం బహువచన రూపం చ సమానం ద్వివచన బహువచన రూపే రూపానాం సామ్యం అస్తి తథా భవతు ఐ డోంట్ వాంట్ కాంప్లికేటెడ్ ఓకే బహువచన ద్వివచన రూపయో తత్ర సామ్యం అస్తి ఏతావత ఆకారాంత
శ్రీలింగ అండ్ దెన్ ఫర్ పుల్లింగ ఏకవచనం అండ్ ద్వివచనం will be same.
No, only Dvivachanam.
Only Dvivachanam will be
same. Clear so far?
Yes.
And here comes our favorite part, Napumsakalinga. Napumsakalinga, then all the forms are same.
That's easy one.
नपुंसकलिङ्ग आल् फार्म्स् आर् सेम् एतत् एते एतानि तत् ते तानि तत्र भेदः नास्ति वनम् अस्ति मित्रम् अस्ति पत्रं पतति उदाहरणाय पश्यन्तु पत्रं पतति पत्रं पतति वाट् इस् पत्रं पतति मीन्
लीफ् इस् फालिङ्ग्
हा पत्रं पतति अहं पत्रं पश्यामि द्वितीयवाक्ये पत्रमिति पदं द्वितीयाविभक्तमस्ति इस् इट् क्लियर् अत्र पश्यन्तु वनमस्ति वनम् अस्ति यतिवरः यतिवरः वनं गच्छति यतिवरः कुत्र गच्छति यतिवरः वनं गच्छति वनमिति पदम् अत्र अस्मिन् वाक्ये द्वितीयभक्तमस्ति
यतिवरः किमर्थं
No, can anyone say the meaning, Krupaya? Who is a yeti?
I'm going to guess, is it a hunter?
Sage. 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 Sage.
Okay, so yeti varaha, the adding of varaha doesn't make any changes.
No, no, he's yeti varaha. Yeah, he's yeti varaha. Yeah, no. Yeah, it's yeti varaha, varam gachati. तथैव तृतीयं वाक्यं पश्यतु आवां पठावः अस्तु आवां पठावः वि बोत् आर् रीडिङ्ग् इत्यस्मिन् अर्थे किन्तु अध्यापकः आवां वदति द्वितीयवाक्ये आवाम् इति पदं द्वितीयभक्तमस्ति आवां नाम अहम् आवां वयम् अहं पदस्य द्विवचनरूपमस्ति आवाम् आवां पठावः अध्यापकः आवां वदति हि स्पीक्स् टु अस् इति अर्थः तत्र अध्यापकः आवां वदति
अध्यापकः एण्ड् मी नो
नो टीचर् इस् टाकिंग् टु
टीचर् इस् टाकिंग्
टु अस्
टु आफ् अस्
टु टु अध्यापकस्
नो 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 नो
नो वन् अध्यापकः टु आफ् अस् वन्
आवां नाम टु वि टु इति अर्थः इङ्ग्लिश् इस् आफल् बट् या दट्स् द बेस्ट् ऐ कुड् डु ओके द टु आफ् अस् इति अर्थः द टु आफ् अस् पठावः इति अर्थः किन्तु अध्यापकः वदति अध्यापकः कौ वा के वदति आवां वदति नाम हि इस् टाकिङ्ग् टु द बोत् आफ् द टु बोत् आफ् अस् इति अर्थः अध्यापकः द्वितीयवाक्ये आवाम् इति पदं द्वितीयभक्तमस्ति सो अवगच्छन्तु द्विवचन रूपं पुंलिङ्गं वा भवतु स्त्रीलिङ्गं वा भवतु नपुंसकलिङ्गं वा भवतु चिन्ता नास्ति यत्किमपि वा भवतु द्विवचनरूपं प्रथमाविभक्तौ द्वितीयाविभक्तौ च समानमस्ति द्विवचनरूपम् इस् सेम् इन् बोत् प्रथमा एण्ड् द्वितीय अक्रास् आल् द वर्ड्स् लिट्रलि आल् द वर्ड्स् डजन्ट् म्याटर् आकारान्त अकारान्त सन्थिङ्ग् literally across all the words is the same dvivachana rupam only okay the other ones you know based on the rupam the pratipadam it changes like akaranta padesha bhinnam bhavati akaranta padesha bhinnam bhavati evam vitya but dvivachana rupam is the same across the board is it clear
yeah
yeah
Okay, everyone else?
Yeah.
Yeah.
Okay, who was that long pause? Someone said yes with a lot of hesitation. Who was it?
I don't know if it was me. Not sure.
No, it's all good now, right? You understand?
Yeah. Thank you.
Okay, wonderful. Okay. पश्यन्तु अत्र द्वितीयः द्वितीयः कः अस्ति?
यप्
पठतु कृपया. इयम् इत
इयम् इमाम् इमे इमाः. एतत् एतत् एते एतानि. तत् तत् ते तानि. अहं माम् आवाम् अस्मान्. त्वं त्वां युवां युष्मान्.
अत्र पश्यतु, अहं गच्छामि, अहं गच्छामि, अहं पिबामि, किमपि भवतु. सः मां वदति, सः मां नयति. अस्तु, माता मां ताडयति, एवं रीत्या माता मां तर्जयति, किमपि भवतु. अस्तु, शिक्षकः पाठयति, शिक्षकः अस्मान् पाठयति, शिक्षकः अस्मान् पाठयति. त्वं गच्छसि, स्वं सोरि, त्वं गच्छसि. अहं त्वां पश्यामि, अहं त्वां नयामि. क्लियर्? अहं त्वाम् आह्वयामि. अहं युष्मान् निन्दामि. सः युष्मान् निन्दति. स्पष्टं वा?
स्पष्टं.
Are my sentences clear in the first place?
Yes.
Everyone else? Shall we move on, or do you want me to explain a little more?
I mean, Shakaji, if you don't mind, can you explain a little more? A little bit of confusion here, you know? So, I don't know if it's for me or for everybody, I don't know.
But where is the confusion?
Like this concept itself is a little confusing.
The Vidya Bhakti concept?
No. So, what you repeated right now, Aham, Yashman,
Mahasto. Okay. Okay, put it like this. Okay. If I say, Natarajaha, Natarajaha, Tvam, Natarajaha, Tvam, Vadati. Tvam, not Tvam. Okay, understand the difference. Tvam, this is Tvam. Tvam Gachasi. This is Tvam here. Okay. Natarajaha, Tvam, Vadati. Kahardaha atra? Natarajaha, Tvam, Vadati.
ओके, नटराजः त्वं वदति.
त्वाम् इस् द द्वितीयाभक्तिरूपं फर् त्वं.
टाकिङ्ग् टु यू.
नटराजः इस् टाकिङ्ग् टु यू इति अर्थः भवति. ओके, बट् इन्स्टेड् एव्रिवन् प्लीस् अण्डर्स्टाण्ड् अण्ड् प्लीस् पे अटेन्शन्. बट् इफ् ऐ से नटराजः त्वं, नाट् त्वां, त्वम्. इफ् ऐ से नटराजः त्वं gachati, the sentence is incorrect, because tvam and natarajaha both are in prathama bhakti. Either you need to change tvam to tvam, saying that natarajaha tvam, he is coming to you or something, or you have to say natarajaha tvam gachasi, in which case tvam is actually natarajaha, I am talking to you, so natarajaha, you are going, iti artha bhavati. Just because you have tvam in the sentence, okay, just understand this, you know, when you have tvam in the sentence, not just because, okay, when you have tvam in the sentence, the madhyama purusha, the verb should always take the madhyama purusha forms, like gachati, gachasi kshamyatam, gachasi, gachathaha, gachatha. Those are the forms for madhyama purusha. Okay, I can never say natarajaha tvam gachati, that is incorrect. Or natarajaha tvam pashyati, I can say that. नटराजः त्वं पश्यसि, दट्स् इट्, और् नटराजः त्वां, त्वां पश्यति, ईवन् देर् यु केनाट् से सि, नटराजः त्वां पश्यति, बिकास् नटराजः इस् द वन् सीयिङ्ग्, एण्ड् नट् ऐम् नाट् यूसिङ्ग् द मध्यमपुरुष देर्, सो दट् इस् इन् प्रथमपुरुष, नटराजः पश्यति. He's looking at what? He's looking at me, you, or in other words, Tvam is you. He's looking at you. So, Tvam, that becomes Tvam, because Tvam is the object form there. It is a karma padam, and that is why you have to use the Dvitiya Bhakti form there. Is it clear?
Yeah, so if we read Divachana, then Natarajaha, Yuvam, Gacchami.
Yuvam, Yuvam.
Yuvam, Gacchami.
No, Gacchati, Natarajaha, right? Natarajaha.
Natarajaha, okay, 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 okay.
Natarajaha, Yuvam.
Gacchati.
So Natarajaha is the celebrity of the day. We'll use his name.
Actually, today I see there are two Natarajaha. There is one more Natarajaha actually in the group.
Really?
Yeah, yeah, yeah. I see one more Natarajaha after me.
I thought it was you.
There is a different email ID, so that's not me.
Oh, I thought you joined from two different devices. Okay, never mind.
Okay. Yeah.
Spashtam Vaita Vata?
Yeah, Spashtam.
Yeah, I think it's actually better now. Yeah.
Yeah.
Okay, we have few more. Nandini Ji, Padmaja Ji, Shubha Ji. And our all-rounder Kausalya Ji.
I think I'm waiting for more sentences to make complete sense. Yeah.
Yes, sure, sure. We'll do that. We'll do that shortly. Okay, so, okay. Tritiyaha, Krupaya Patatu. Kahasti Tritiyaha? Kausalya Ji. Mute madhye asti prayah kurpaya pashyatu. Okay, she's not there. Chaturthi kurpaya ambaji.
Ramam, Ramau, Raman.
No, no. Pratamam padam api patatu kurpaya. Rama.
Rama.
Ramam.
Ramau. Raman. Lata, Latam, Late, Lataha. Nadi, Nadim, Nadyau, Nadihi. Vanam, Vanam, Vane, Vanani.
Atra, Pashyantu. The first column here, right? Atra, Rama, Lata, Nadi, Vanam. Okay? These are all called Pratipadikas. Okay, Pratipadikas. Pratipadikas nama root word. Iti chintayantu tavadeva. Root word. Okay, these root words, they take seven different forms. Prathama vibhaktihi, dvitiya vibhaktihi, so on and so forth. In case of akaranta pumlinga padam, the pratipadikam of the word Ramaha is Rama. Okay, the pratipadikam of the word Lata is Lata. Pratipadikam of the word Nadi is Nadi. Pratipadikam of the word Vanam is Vanam. Okay? They are called Pratipadikams, the root word, iti artha, tavadeva. Okay? So, when I ask, Kidrisha Padam, Kidrisham, now what kind of iti artha? Kidrisha Padam, Kidrisha Siyutaha, Kidrishi Lata, evam ritya bhavanti rupani. Kidrisha Padam, what kind of a word? Okay? If I say Ramam, for example, Rama, what kind of a word is Ramam? Nama? Akaranta Pumlinga Padam Dvitiya Vibhakti Eka Vachana Rupam Iti Vaktavya. Okay? If I say Nadihi, if I say, for example, Nadihi, okay, say, what kind of word is Nadihi? Kidrisha Padamasti, Kidrisha Padamasti. Say, Ikaranta Strilinga Padam Dvitiya Vibhaktau Bahuvachane Asti Atma Dvitiya Vibhakti Bahuvachana Rupam. Okay, Raman, Raman, Akaranta Pumlinga Padam, Akaranta Pumlinga Padam, द्वितीया विभक्ति बहुवचन रूपम. ओके, व्हेन समवन आस्क्स यू व्हाट काइंड ऑफ अ वर्ड इज दिस, यू नो व्हाई वुड समवन आस्क, राइट? यू विल नो व्हेन यू स्टार्ट रीडिंग काव्यास or Ramayana or Gita, whatever you want to read, right? Then it will be more evident. But this is how you have to say. Say, Latam, Kidrusha Padamasti. Akaranta Strilinga Padam, Dvitiya Vibhakti Ekavachana Rupam. Is this clear? The first yeah. column we said is called Pratipadikam.
Pratipadikam.
Okay? You should never, never, ever say Ramaha. Is the Pratipadikam. No. Ramaha, Ramaha, that Visarga is very, very important. Ramaha is a Prathama Vibhakti Ekavachana Rupam. But the Pratipadikam, the root word is Rama. Okay? Rama, Akaranta Pumlinga Padam. Lata, Akaranta Strilinga Padam. Nadi, ఈకారాంత స్త్రీలింగ పదం. అత్ర పశ్యంతు వనం, ఇట్ ఎండ్స్ విత్ ము, స్టిల్ ఇట్ ఇస్ అకారాంత నపుంసక నపుంసకలింగ పదం. అకారాంత నపుంసకలింగ పదం, ఇట్ ఇస్ నాట్ మకారాంత, అకారాంత ఓన్లీ. అకారాంత నపుంసకలింగ పదం వనం. ఇస్ ఇట్ క్లియర్ సో ఫార్?
యా. Yes.
I'm hoping no questions here.
No questions here.
Asto. Adhana.
Shekhar ji. Napunsak linga pratipadikam is vanam or vanam?
No, no, vanam, vanam. Vanam is the pratipadikam.
Vanam.
Usually we say no, vanam is only the pratipadikam there. It should be vanam only. I'll be very surprised if they say vana, but that's I'll take a look at that as well. Hang on. It has to be akaranta pumlinga napumsakalinga padam.
Hala, vana.
No, it shouldn't say so. But I'll take a look at that, but in the meantime, let's proceed further.
Chintanasi.
Can you, everyone please stay on mute? Dhanyavad. Adana screen drishyate kila?
Yes.
Tad vakyam adatu chaturthah. Chaturthah kaha? Chaturthah va chaturthiva.
धनिकः ग्रामं गच्छति.
धनिकः ग्रामं गच्छति. उत्तमम्. अत्र प्रथमाविभक्तौ किं पदमस्ति?
ग्रामं
प्रथमाविभक्तौ पदं किं?
धनिकः.
धनिकः प्रथमाविभक्तौ अस्ति. द्वितीयविभक्तौ पदं किमस्ति?
ग्रामं.
గ్రామం ద్వితీయ భక్తం అస్తి. ఇస్ క్లియర్?
Yes.
పంచమః పంచమి వర్స్. హూస్ ద ఫిఫ్త్? సారీ, నటరాజన్ జీ.
యా, అండ్ దెన్ ఓకే. మునిహి ఆశ్రమం గచ్చతి.
ఆశ్రమం గచ్చతి. అత్ర ప్రథమ విభక్తో కిమస్తి?
ప్రథమ విభక్తో మునిహి.
ద్వితీయ విభక్తో?
ఆశ్రమం.
ఆశ్రమం. ఉత్తమం. అనంతరం గ్రాహకః షష్ఠి.
గ్రాహకః ఆపణం గచ్చతి.
ప్రథమ విభక్తో?
గ్రాహకః.
ఆపణం గచ్చతి. అస్తు, సప్తమి
జి. భక్తః నదీ gachati.
No. Bhaktaha?
Nadi?
Not Nadi. What should
nadi.
It be? No, how much ever... You can
Nadim.
You can pull the ikara however long you want. It's still incorrect.
Bhaktaha Nadim Gachati.
Bhaktaha Nadim. Nadim Gachati.
Bhaktaha Padama and Nadim Itvitiya.
No, no. What is Bhaktaha there?
Bhaktaha.
Which vibhakti, which vibhakti it is?
Pratama vibhakti.
Pratama vibhakti. Nadi?
Dvitiya vibhakti.
Nadi is in dvitiya vibhakti. Good.
Vibhakti.
Okay. Wonderful. Yeah. Saptami.
Sorry, Shikaji, I have one question. The previous one. Is it? So that basically means the devotees are going to the river.
One yes. devotee is going to river.
One devotee is going to the river, right? So should it be Nadiyaya or Nadim? Because
Nadim.
They are not taking the river, right? They are going to the river. So
yes.
the
not be,
no, no, because yeah, the Dvitiya Vibhakti is like Rama is taking or leading Lakshmana. That's, then we say Lakshmanam. Lakshmanam.
Mm-hmm.
Right, but in this case, a devotee is going to the river. So, two is the fourth vibhakti, right? I'm going someplace.
No. Gacchati sarvada dvitiya eva. Gacchati vibhakti sarvada dvitiya eva.
Okay, so it is Nadim only.
Yes. Everyone please mute. There's a lot of echo. Thank you. Okay, next. Saptami, Ashtamiva.
Asmi Mahoday. Shishyah Prashnam Prichati. Iti vakena Shishyah Pratama Vibhakti Prashnam Dvithi Vibhakti.
Dvithi Vibhakti. Uttamam. Anantaram Bhaktaha Nadim, sorry, this is... Oh, yeah. Adhana Itaparam Vadantu. Ashtami Abhat Navami.
Asmi. Saha. Malam. Kshipati.
Saha. Malam Kshipati. Anantaram?
And. Saha. Syutam Kshipati.
Syutam Kshipati.
And then
Anantaram?
Saha Lekhanim Kshipati.
Lekhanim Kshipati, correct.
And then Saha Palam Kshipati.
Saha Palam Kshipati. Uttamam. And yes, Ekanimsham. Tatra Satyam Pratipadika Tatra Makarha Nasti Maikimatam Tatalikam Nasjanami Astu. What she said is correct. We shouldn't have this one in here. It is my bad. I put Makara here. Sorry, my bad. The Makara shouldn't be here. Pratipadikam is still Vana only, not Vanam. Okay? I'll remove that in here if you see. This is the Pratipadikam. Yes. And yeah, go ahead. What was the question now? Everyone noted that, right? The Pratipadikam is Vana only. Okay? There's no more there in Pratipadikam.
Yeah.
Thank you.
Pala, etc.
Yes, yes. What was the question, sorry?
No, there was no question.
Shikhaji, what does Kshipati mean?
Anyone?
Kshipati is throwing. Throwing.
Discarding.
Giving away. To throw.
There are a lot of meanings. Throwing, discarding, sure.
Okay.
Anything.
Okay.
I mean, throwing the ball or throwing, it's like...
That is why, you know, I said there are a lot of... If you say, you're discarding the trash, even there you use the word kshipati. If you want to throw a ball, even there you use kshipati.
Okay. Thank you.
Okay.
So what is that? Syutaha?
Syutaha.
Bag.
Bag.
Bag. Bag.
Sorry?
Bag.
Okay, okay.
ओके अनन्तरं ते दशमे किल अधुना नवमे वा दशमे उच्यतां
ते कथां वदन्ति ते वार्तां वदन्ति ते सुभाषितं वदन्ति
ते सुभाषितं वदन्ति उत्तमम् अत्र ते नाम केचन जनाः सन्ति ते वदन्ति ते किं वदन्ति कथां वदन्ति वार्तां वदन्ति तथैव सुभाषितं वदन्ति
सुभाषितम् अतः कमेण्ट्रि आर् समथिङ्ग् आर्
नो सुभाषितं
सेयिङ्ग्स् रैट् लैक्
यस्
प्रवचनं
नो नाट्
प्रवचनं नाट् प्रवचनं सेयिङ्ग्स् दे विल् से रैट्
No, no, not proverbs
no, no,
either.
No, 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 no.
Subhashitam are like the Niti Shatakas kind thing.
Okay.
A good saying, whatever it is called, it's Subhashitam.
Moral story.
Not story, moral shloka, if that. It's a good, any good word is called Subhashitam.
Okay.
But typically, we have, you know, these in form of shlokas.
Mm-hmm. Okay.
Like Bhartahari Subhashitas. Okay. Okay.
So here it should be Subhashita.
Kimit Prashna kaha?
Here it is Subhashitam. So it should be Subhashita.
Subhashitam napumsakalinga padam eva asti Subhashitam iti. सुभाषितमिति पदं नपुंसकलिङ्गे एव अस्ति अतः ते कथां वदन्ति ते वार्तां वदन्ति ते सुभाषितं वदन्ति प्रातिपदिकं सत्यं सुभाषितं वदन्ति अहम् इति द्वादशी एकादशी क्षम्यताम्
अहं द्वारं पश्यामि अहं वृक्षं पश्यामि अहम् अम्बां पश्यामि अहं धनं पश्यामि अहं चलनचित्रं पश्यामि अहं शालां पश्यामि अहं अहं प्रथमा विभक्ति द्वारं वृक्षं द्वितीया विभक्ति रूपम्
अस्तु द्वारं वृक्षम् अम्बाम् एतानि सर्वाणि पदानि अपि द्वितीयाविभक्तौ सन्ति अस्तु उत्तमं
प्रातिपदिकं फार् अहम् आल्सो
अफ्कोर्स् यस् वि डु अस्मद् इस् अ पदं देर् अस्मद् युष्मद् वि विल् गेट् देर् इन् द नेक्स्ट् क्लास् स्लोलि यु नो दट्स् दट् मैट् बि टु मच् फर् नो दट्स् फैन् ओके एव्रि वर्ड् हेस् अ प्रातिपदिकम्
Okay.
Every word has a pratyekam. Okay. If there is no pratyekam, there is no word.
Okay.
So chalanam chitram, chalanam chitram is movie, right?
Satyam.
And shala, what is shala?
Shala is road.
Place.
No. Shala is a, generally when we say paathashala kind thing. Yeah. Any place.
Any place.
Yeah. Usually it refers to paathashala kind thing.
Okay.
So what is it?
Paathashala.
Maybe a room, like Pakashala, Patashala, both.
Yes.
Pakashala is kitchen, right?
Pakashala, kitchen, Satyam.
Okay.
Patashala is school. Any place, usually Shala, or any, how do you say this? Yeah, we can say that actually, Shala.
Okay.
And then what is Amba is?
Amba is mother, right?
Amba is mother.
Amba is mother only, right? Okay.
So on the slide, if you change the Pratipadaka Padam with
Pratipadikam, Pratipadikam.
Pratipadikam, Kshamyatam, Padam, then it will be hard to do this quiz because right now it's all the same.
Like how, what do you mean, sorry?
If the slide had only Dwara, then we have to actually apply the rule. Otherwise, it becomes too easy.
Yes,
now.
That is correct. That's only, you would only know that, get that to practice, that's it. There's no other way there. There's no other way there. Okay. And then Pratamaha, Punaha, Pratamaha kaha? 14th
slide.
I think. Aham. 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 Aham.
Aham.
Aham.
Aham. Aham. Aham. अहं समुद्रं पश्यामि अहं गङ्गां पश्यामि अहं कुञ्चिकां पश्यामि
अत्र सर्वाणि पदानि अपि परिचितानि एव किल प्रश्नाः सन्ति वा ऐ एम होपिङ्ग् एवरीवन् एक्चुअली नोस् दि कुञ्चिका इस् की यस्
Everything is known words.
Okay, good. Punaha Prathama Krupaya?
Avam. Ashim. Pashyavaha.
Tatra Pashyato. Avam Kashim Pashyavaha. Purva Masit Aham Kashim Pashyami. Into Atra Avam Kashim Pashyavaha. द्वितीयाविभक्तिरूपं तथैव भवति अस्तु
सो दीस् आर् टु पीपल् आर्
सत्यम्
आवां प्रथमविभक्ति अशीम् इस् द्वितीय आवां समुद्रं पश्यावः आवां समुद्रं पश्यावः आवां गङ्गां पश्यावः आवां कुञ्चिकां पश्यावः सो आल् दोस् वर्ड्स् आर् दस् द्वितीयाविभक्ति प्रथमविभक्ति
सत्यम् अनन्तरं द्वितीय
वयं पुस्तकानि यच्छामः वयं स्यूतं यच्छामः वयं पात्रं यच्छामः वयं लेखनीं यच्छामः वयं त्वम् अगेन् त्वं त्वं यच्छामः
नो वयं त्वाम्
वयं त्वां ओके वयं त्वां यच्छामः वयं
चमसान् एकवचनं वा बहुवचनं वा यू चूस् डजन्ट् मेटर्
ओके ऐल् पिक् द एकवचनं सो वयं चमसं यच्छामः वयं भोजनं यच्छामः वयं ग्रन्थं यच्छामः
सो
वाट् इस् चमसः
चमसः पुस्तकानि आर् पुस्तकानि
पुस्तकानि
पुस्तकानि रैट् देर् इस् नो इम् फार् पुस्तकानि
पुस्तकानि The only one, the only thing to understand here is Pustakani Atra Dvitiya Bhakta Vastitava Deva. It is not a Prathama Bhakti Bahuvachan Rupam, it is Dvitiya Bhakti Bahuvachan Rupam, that's correct.
Yeah.
Devaji, what did that Chamasaha mean to you, sir, just now?
Spoon.
Oh, Chamasaha, okay.
Okay.
Shekhar, just pustakani, I don't know how to ask it, but I'm finding it difficult to understand. So pustakani means more than one book, right?
Okay.
More than two books.
Yeah, more than two books. Thank
okay. you. Okay, yeah, sure, go ahead.
So
okay.
Vayam pustakani yachhamaha. How would this be? So anything in Bahuvachanam, the Vibhakti would be same. We don't need, there is no Vibhakti for that. I don't know. I'm finding it difficult
okay,
to understand.
Okay, so if I understand your question correctly, okay, first and foremost, yachhati padasya artaha kaha?
Give or donate or give, right?
Donate is too heavy a word, but sure, yeah, go ahead. Okay, something give it, okay? Vayam pustakani yachhamaha. Okay? Idame vakyam ekavachane vadami. Udaharana, karmapadam, avalambya. Vayam pustakam yachhamaha. Atra bedha kaha ita avagachantu. Astu, vayam pustakam yachhamaha. Vayam pustakani yachhamaha. प्रथमे वाक्ये वयं सर्वे अपि केवलम् एकमेव पुस्तकं यच्छामः इति अर्थः. द्वितीये वाक्ये वयं पुस्तकानि यच्छामः इत्यत्र वयं बहूनि पुस्तकानि यच्छामः इति अर्थः. ओके, दट् कर्मपदम् इस् इन् नो वेर् रिलेटेड् टु दि कर्ता. यु केन् आल्सो से अहं पुस्तकं यच्छामि, अहं पुस्तकानि यच्छामि, दट् डजन् मेटर्. ओके, अहम् एण्ड् द क्रियापदम्, ओके, दे आर् रिलेटेड्, बट् द कर्मपदम् इट् कुड् बि इन् एकवचनं, द्विवचनम् और् बहुवचनम्, इट् डजन् मेटर्. इस् दट् जस्ट् क्वशन् और्
नो, दट्स् ओके.
नो, ऐ थिंक् इट् इस् टु स्टार्ट् फ्रम् द एकवचनम्, इट् मैट् बि हेल्प्फुल्. ऐ थिंक् यू मेन्शन् दट् पुस्तकम्. So that becomes pustakani. Right, and then vayam pustakani, and that does not have a dvitiya form. It's the same pustakani.
It does have a dvitiya form, but it is the same.
So dvitiya form is same as prathama form. So vayam pustakani yachhamaha.
Okay.
What is the bahuvachana form then? I forget.
For which
for
one?
Pustakam, pustakani is dvivachanam. And then
no. Bahuvachanam is pustakani.
Pustake
is dvivachanam.
Okay, so it could be by pustake yachhamaha or pustakani yachhamaha.
Vayam pustake yachhamaha, yet it is correct, yes. Why would be, Anjaji, why would the yachhamaha be in dvitiya?
No, sorry, no. That's my mistake. Yeah, okay. Vayam is always.
Vayam pustake yachhamaha. Yes.
Yeah.
That is correct.
What does yachhamaha mean?
Give.
Shikarji, what is the difference between dattaha and yachhamaha? Is there any difference between the two?
No, dattaha va, dadati va.
Sorry, dadati. Yeah, dadati.
Same thing
only, right? Okay, we can use this interchangeably.
Yes,
there is no difference in meaning. Okay.
Yes. But usually when we say the word danam, the word dadati comes into picture. It can mean donate also. But yes, the word danam came from dadati.
Okay. And similarly, yajati means to beg for food or something? Or to
No. Not yajati. Yachati.
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 Okay, I see a word yajati also. I think I remember saying a word yajati. Does it have any meaning?
Yajati.
Sir, yajati.
You said, right?
Yeah, yajati.
Yajati, as far as I thought it actually is meant to give something. It's
not
to,
is also give.
Yeah, to offer something, okay. Yajati.
Okay. So yajati or is some kind of a root word for yachamaha? Meaning is that yajati becomes
yachamaha? No. Yachamaha, yeah. Yachamaha becomes yeah. Yajati becomes yachamaha, that is correct, yes.
Okay, fine. Okay, got it.
Prashna, Shiva?
Okay.
Astu, agresarema? So, idam krutameva purvam. अस्तु, इदं तु पूर्वं कृतमेव. आवां पठावः इत्यत्र सर्वत्रापि प्रथमं प्रथमवाक्यमस्ति, प्रथमविभक्तौ सर्वे कृपया मुच्यते भवन्तु. सर्वे कृपया म्यूट् मध्ये भवन्तु. ओके, अस्तु. अधुना अत्र पश्यन्तु, ओके, यु हाव् त्री ब्लाङ्क्स् हियर्, ओके, दीस् आर् द वर्ड्स् दट् यु हेव्, ओके. ऐ वाण्ट् वन् प्रथमाभक्ति वर्ड्, वन् द्वितीयभक्ति वर्ड् and shashti saptami if you can, great. You can have more than three words as well, it doesn't matter. Okay, udaharanaya vidyalaya.
Sir, are you hear me?
Yes, yes. Uchitam,
okay.
Atra pashyantu, these are all the kriya padas here, nayati, pashyati, so on and so forth. These are all your words here, okay. You have to pick two words from here, okay, and a verb from here. ओके, उदाहरणाय अल्से विद्यालये, विद्यालये जननी, पश्यन्तु, विद्यालये जननी घटं पश्यति. इस् इस् क्लियर्? विद्यालये जननी घटं पश्यति.
जननी
घटः, घटः मीन्स् अ पाट्.
Oh, okay.
Okay, so my sentence is janani vidyalaye ghatam pashyati, or vidyalaye janani ghatam pashyati. This is my sentence. So I have saptami there, I have a dvitiya there, ghatam pashyati, ghatam is dvitiya there, and janani of course, you know, it is prathama there. So I have two vibhaktis there. Is this clear?
Okay.
Okay, who wants to start?
अहं ग्रामे क्रीडां करोति, और
अहं ग्रामे क्रीडां
करोति, और
करोति वा, अहम् अहम्
अहं
करोमि
करोमि.
उत्तमम्. अहं ग्रामे क्रीडां करोमि, कः अर्थः? अहं क्रीडां करोमि नाम अहं क्रीडामि इति एव अर्थः. अहं क्रीडां करोमि और अहं क्रीडामि, दे मीन् द सेम्. ओके, अहं गमनं करोमि अथवा अहं गच्छामि, दे मीन् द सेम्. ओके, अनन्तरं शङ्करजी, नटराजजी, गो हेड्. इफ् एनीवन् हु इस् रेडी कन् गो.
वृद्धः स्यूते पत्रं, what word is it, to keep, sthapayati, I don't see sthapayati there.
That's fine, that's fine. Vriddha syute patram sthapayati, uttamam. Atra dvitiya vibhakti padam kim asti vakye?
Dvitiya vibhakti patram.
Wonderful, wonderful.
Prathama vibhakti vriddha.
Saptami?
And saptami is syute.
Wonderful, wonderful.
अहं नद्यां घटे जलं नयामि.
किमस्ति वाक्यम्? घटे जलं नयामि वा? नो, यु केन् से घटे देर्. यु हाव् टु बि तृतीया भक्ति.
नद्यां क्षम्यतां, नद्यां सप्तमी, अहं नद्यां घटं
नो यूनिट् तृतीया देर्
तृतीया 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 घटेन जलं नयामि.
अस्तु, दट्स् गुड्.
शुनकस्य शुनकस्य पात्रं अम्बा अम्बा शालयति.
शुनकस्य पात्रम् Amba kshalayati. Wonderful. Who said the sentence? Is it Baliji? Wonderful, wonderful, wonderful.
I'm sorry, Shekhar Ji. Shunakah is a person here, is it? Or I don't know.
No, no, a dog.
Dog.
Dog. Oh, dog. Is it? Shunakah is dog. Okay.
Shunakasya patam.
Ashvaha bharam vahati.
Wonderful. Ashvaha bharam vahati.
Aham suryam namati.
Aham suryam?
Namati.
No, aham, aham, aham.
Namami.
Namami. Yeah, aham suryam namami.
Okay, so you can use Dvivachanam as well here. Like Gacchataha.
Like Gacchataha.
Madhyama Pushama. Madhyama Pushama
also can be used.
Can everyone please mute? Okay, thank you. Yeah, go ahead. Who wants to say? Well, sorry, I did say everyone mute, but only the person wants to say, please unmute yourself and say.
Aham ashvam arohati.
Aham ashvam?
Arohati. Climbing, right? Arohati.
Sure, but it's, you said aham.
Arohami.
Ah, wonderful. Aham ashvam arohami. Wonderful.
Aham phalam kadami.
Khagami. Aham phalam khadami. Anantaram.
Vruddha gramam gachati.
Vruddha gramam gachati. Wonderful.
Tvam syute vastram layati.
Na 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 na. No. No. Svam syute vastram nayasi. Kim vaktam ichchati tatra?
You put the clothes in the bag.
Oh, nayasi. Then why you say nayasi sthapayati?
Oh, sthapayasi. Okay.
Sthapayasi. Yes. Sthapayasi.
What does nayati mean?
Anyone?
Nayati is carrying.
Carry.
Carry.
Lead. Take.
Yeah. Okay.
Vriddha Jananim Vadati.
Vriddha Jananim Vadati. Okay, wonderful.
Tvam Nadim Pashyasi.
Tvam Nadim Pashyasi. Wonderful.
Grame Nadim Vahati.
Grame
Nadim Vahati.
Why?
Vahati.
Vahati
is flowing, right?
It's flowing, right? What is flowing? What is flowing?
Nadi. Nadi.
But no, no. Nadi is the one flowing, right?
Is the one flowing, right?
So it should be Prathama.
Oh. Nadi.
Who is flowing? Nadi is flowing.
Nadi is flowing. Oh, okay. Okay.
Again, please. If can everyone be on mute? Only one person, please. Shubhaji, go ahead. You were saying something?
Shunakaha kandukam prapnoti.
Shunakaha kandukam prapnoti. Wonderful. Shunakaha kandukam prapnoti. Wonderful.
Prapnoti means receive, right?
Satyam. Receive, okay. To get, to obtain, whatever.
Okay. Okay.
Aham nadyah jalam pibami.
Aham nadyah jalam pibami. Wonderful.
Aham gramasya phalam maduram asti santi.
Gramasya phalani madhurani madhurani santi. Gramasya phalani madhurani santi. Wonderful.
What is kaumudi mean? What is kaumudi?
Anyone?
Moonlight,
wonderful.
Moonlight.
Kim? Kaumudi kim?
Kaumudi nama moonlight. Moonlight iti artha.
Moonlight. Aham nadyam suryam namami.
Nadyam suryam namami. I understand what you wanted to say, but it almost feels like you are actually doing the namaskara kriya for the surya in the nadi.
Yes.
So surya in the nadi, there is surya in the nadi then.
The reflection of sunlight in the river.
Okay, yeah, sure. I see what you wanted to say, but okay.
Vayam kaumudyam bakshayam bakshamaha.
What is it?
I want to say to eat. Bakshamaha is eating, right? To eat. Or is it bakshayamaha? I want to say we are eating in the moonlight.
So you literally translated the sentence.
Okay.
Yeah.
So, we cannot say kumudyam, is it? In the moonlight.
If you are a poet, sure, but no, usually no.
Okay.
Shekharji, avam janani vastram shalaiti.
Avam janani, no. You want to say our mother, right?
Our mother, right.
No, that's not
right. No, I can't say that.
No, because look at it. Avam is the two of us, right?
Two of us, yeah.
But how is the relation? How do you say the relation between two words? You need shashti there.
Okay.
So, yeah, I can.
Okay.
Why not mama janani vastram?
Mama janani, you can say. Mama janani.
Mama janani.
Vastram.
Vayam.
Khadamaha.
Vayam?
Kaumudyam khadamaha.
Yeah, Natarajanji also said the same sentence, but okay, sure. Kaumudyam khadamaha. Okay. So, Anjuji, to answer your question, you can use mama as singular, but if you want to use dvivachanam there, we haven't done that yet, we will do that.
Okay.
Okay, but you can see, you can use mama for now.
Yeah, mama, that's right.
That's fine.
Or okay. I can even say, mama janani vastram shalaiti. Okay.
Shankarji, Rangaji.
Okay. Aham gramam agachami.
Aham gramam agachami. Wonderful.
Vriddha shunakam palayati, is it right?
Nischena. Vriddha shunakam palayati. Wonderful.
Vriddha suryam. Namati.
Namati. Vriddha suryam namati.
What does it mean to say vriddha shunakam palayati? Palayati means rule, right?
No,
no.
Can everyone be on mute? Okay. Vriddha shunakam palayati. Ichatra kaha artha? Rule, or is it taking care?
Oh, okay, we can say taking care of them. Okay.
Yes. That's the gaunartha, right? When you rule someone, you take care of them one way or the other. So that becomes the gaunartha.
Okay. Okay. Understand. Got it.
Yetivaraha vanam gachati.
Yetivaraha vanam gachati.
Vriddha shunakam ahoyati.
Vriddha?
Shunakam ahoyati.
Vriddha shunakam ahvayati. Wonderful. Sheetalji?
Vidyalaye balaha kridam kurvanti.
Vidyalaye balaha kridam kurvanti. Uttam, bahuvachana vakya.
Shafiji, what is that? Bharaha? Bharaha.
Bharaha. Bharaha nama weight.
Weight, okay.
Bharuvu iti arthaha.
Yeah.
Vriddha aswam patram dadati.
No. Vriddha aswam
patram.
Ashvaya. You need chaturthi there. You cannot say aswam patram dadati. If you want to say, when you say vriddha aswam patram dadati, it means the vriddha gave both aswam and patram to someone.
Asumade.
What is kshalayati?
Kshalayati.
Washing.
Okay. Thank
you.
Is prarthayati the same as namati?
Sure. Go ahead.
No, I was just asking the meaning.
No, yeah.
Okay. Aham suryam प्रार्थयामि
प्रार्थयामि अस्तु नमति इस् लैक् द नमस्कार क्रिया प्रार्थयति यूशुअली इस् इट्स् यूस्ड् इन् द काण्टेक्स्ट् आफ् रिक्वेस्टिङ्ग् समथिङ्ग् बट् व्यवहारे प्रार्थयति बिकास् वि से भगवतः प्रार्थना इट् मीन्स् यु नो युर् नमति इन् व्यवहार बोध् नमनम् एण्ड् प्रार्थना बिकेम् यु नो लैक् सिनोनिम्स् आफ़् ईच् अदर् बट् द मीनिङ्ग् इस् डिफ़रेण्ट् प्रार्थयति मीन्स् यु आर् आस्किङ्ग् समथिङ्ग्
Right.
Yeah, when you're like requesting something.
Okay. So then it will be better to say Aham Suryam Namami.
No, you can definitely ask Surya for health and wealth. So you can say Prathayami, okay. There's nothing wrong there. But just understand the difference there, that's it.
Right. Okay, thank you.
Aham Vriddhasya Vastram Kshalayami.
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 अहं वृद्धस्य वस्त्रं क्षालयामि
सो केन् बी यूस् प्रार्थयति विदौट् सब्जेक्ट् बीङ्ग् लैक् अ गाड् आर् टेम्पल् आर् समथिङ्ग् लैक् दट् लैक् केन् ऐ से ऐ आस्क् समथिङ्ग् टु मै सन् आर् मै हस्बेण्ड् ऐ केन् यूस् प्रार्थयति
यस् डेफिनेट्लि देयर्स् नथिङ्ग् राङ्ग् देयर्
इस् अ सेण्टेन्स् रैट् जननि वस्त्रेण स्यूतं Krinati. Okay, she is buying a bag made of cloth?
No. Using, if you ask me, about it, tathanasti. With a cloth, no. That's not a karanam in any way.
Okay.
Syuta vastram, syutasya vastram, something like that.
Vriddha pautraye kandukam
sentence is correct, sure. We have few overachievers here. That is Chaturthi. If you know, you have questions, don't worry about that. You get to the later. But the sentence is correct. Wonderful. The sentence is correct. Any more sentences? No, I haven't seen any Dvivachana forms
darati,
here.
Darati, janam, janani vastram darati.
Janani vastram darati, wonderful. Janani vastram darati.
Balakau apanena kandukam krinitaha.
Avai apanena, apane.
Apane.
Athava apanataha.
Apane.
अथवा आपणतः कन्दुकं क्रीणीतः वण्डर्फुल् वण्डर्फुल्
How do you use the word बारः I'm just confusing wait what do you use for that
अस्तु रविः संसारभारं वहति
That's right
Now it should be very clear for you.
I think yeah, you'll never forget now.
Aham netre pashyami.
No. What did you want to say? Sorry. What do you want to say?
Aham netre pashyami.
No, I understand what you're saying. No, even then you're not looking with one eye, right? That's the problem. Okay. So, are you looking at two eyes or are you looking using your eyes?
Using our eyes, right?
Astu Maria.
Avagatam va?
Avagatam.
Astu, Uttam.
Is it netrena, aham netrena?
That is definitely correct, but the problem is, are you using only one of your eyes? You have two eyes, right?
Okay.
So using only one eye, sure, that sentence is correct.
Okay. Netriyam.
Don't worry about it. We'll do that later.
Shekharji, is this correct? Vriddhaha शुनकं ददाति. I mean, he gave away the dog.
Ah, nischayena. Vruddha shunakam dadati. Wonderful. There's nothing wrong there.
Aham ashvau kreenami.
Aham ashvam kreenami, ashvau kreenami. Wonderful. Asto, adana aham kanishana padani dadami. Tadavalambya vakhyani vadantu. Pratamaha. Asto, te itihasah. I'm giving you three words, okay? I'm not saying this, these are the correct words, okay? You need to change the vibhakti and make a meaningful sentence. I'm just giving you three words. Pratama means Rangaji, I'm giving it to you, okay? The words are te itihasah smarati. Say the sentence now. Te itihasah smarati.
Te itihasah namati.
Oh, smarati, smarati, smarati.
Smarati. Te itihasa smarati. Smarati. Okay. Aham.
No, no. Say te. I'm giving you the word te.
Okay, te.
The karta is te there. So, te.
Itihase.
No.
No.
So what was the question? I'm
giving you okay. So did anyone understand my question?
Maybe I can give it a try.
Nata, then
te itihasam smaranti.
Te itihasam smaranti.
Ah, te itihasam smaranti.
Or smaratah also can go right. Or
yes.
Okay.
Te itihasam smaranti. If you take te as pumlinga bahuvachanam, it will be te itihasam smaranti. If you take te as a striling of dvivachana, striling of dvivachana padam, te itihasam smarataha. Wonderful. Is this clear now?
Shekharji, I just want to give one try for this. Te phalam patram khadataha. They are eating fruit in a, some
leaves.
No, patra means a pot. Patra, like
patra means leaf only.
Patra means
patram,
leaf.
Oh, that's patram. Okay.
Patram.
Okay.
But otherwise, if it was patram, so then it's correct. Te phalam patram khadataha.
No. No, it means they're eating both phalam and patram. They're eating the plate and also the phalam. That would be very, very unfortunate. That's incorrect.
Patrani.
They are eating fruit in a plate or
they don't they should you should use the patrat phalam, you know, the one that's in there. Patrata, they take it from there and then eat, right? That is how you want to say it. Don't worry about that for now, okay? Dvitiya, Rangaji, are you ready for the next question, if you understood what I'm asking?
I have a doubt.
Yes.
If te is a pullinga patam, it is a bahuvachanam smaranti.
Yes.
If the same te is a strilinga patam, dvivachanam, then smaranti what?
No, smarataha. Smarataha.
Smarataha. Okay.
Yes.
Okay. Thank
smarataha.
You.
Yes. Okay. Mata, Rangaji, mata putri bodhayati.
Mata putrim bodhayati.
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 Bodhayati. Okay, wonderful. Next is dvitiyaha. Chhatraha, chhatraha, vishayaha. Astu, chhatraha, vishayaha, avagachati.
Chhatraha.
No, hang on. Hang on. Dvitiyaha.
Yeah, that's me.
Okay. Only Shankarji answers this, no one else. Please, okay? Chhatraha, vishayaha, avagachati.
No, sorry, I think I'm lost.
Tritiyaha?
Chhatraha vishayam avagachanti.
Chhatraha vishayam avagachanti. Avagachanti means to understand. Avagachati, avagamanam is to understand. Chhatraha vishayam. Vishayam means any topic, any subject. Iti artha. Vishayaha akaranta pumlinga padam. Chhatraha vishayam avagachanti. Is this clear, Shankarji? No? ओके तृतीयः त्वं त्वं पाठः त्वं पाठः पठति केन् यु से द सेण्टेन्स् नौ तृतीयः
त्वं पाठं पठसि
वण्डर्फुल् त्वं पाठं पठसि चतुर्थः चतुर्थः यूयं यूयं शाटिका शाटिका एज़ इन् सारि शाटिका धरति
यूयं शाटिकां धरत
धर सी वंडरफुल सी दिस इज वेर आई वांट टू आस्क अ क्वेश्चन सो व्हाट डज द सेंटेंस मीन नाउ कैन यू से टेल मी द मीनिंग
यू आर कैरिंग द सारी
नो धरति मीन्स टू वेयर
वेयर या वेयरिंग द सारी
हाउ कैन यू यम इन बहुवचन कैन ओनली मीन वन सारी इफ यू से शाटिकाम राइट आई सेड यू यम व्हिच इज अ बहुवचन करेक्ट
शाटिकाः धरति
शाटिकाः
शाटिकाः
वंडरफुल सो यूयं शाटिकाः
धरतः
धरतः
ठ ठ
इट्स क्लियर राइट
यस
सो यस यू नीड टू यूज एकवचनं व्हेन इट इज करेक्ट बट यू हैव टू मेक यूज ऑफ बहुवचनं वर्ड व्हेन इट इज मोर एप्रोप्रिएट ओके ओके वंडरफुल ओके कृषकः 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 भोजनं खादन्ति ओके कृषकः भोजनं खादन्ति फिक्स् दिस् सेण्टेन्स् चतुर्थः कोऽपि हु इस् द चतुर्थः चतुर्थः कः ओके अस्तु पञ्चमः वदतु तर्हि पञ्चमः वदतु कृषकः भोजनं खादन्ति फिक्स् दिस् सेण्टेन्स् पञ्चमः कः अस्ति नटराजन्जि ओके
कृषकः भोजनं खादति
कृषकः भोजनं खादति युवां षष्टि युवां श्लोकः पठति
युवां श्लोकं पठतः
पठतः वण्डर्फुल् सप्तमी सीता सीता लक्ष्मणः रामः ग्रन्थः नयति रामः लक्ष्मणः सीता ग्रन्थः नयति इति पदम् एतानि पदानि सीताजि केन् यु प्लीस् म्यूट् ओन्लि हि आन्सर्स् नौ
रामः सीता लक्ष्मणस्य ग्रन्थति नयतः
नो नो रामः सीता लक्ष्मणः च
रामः सीताः लक्ष्मणः
नो 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 वै से वै डोन्ट् से रामः देयर् इस् नो नो
रामः सीताः
नो नो सीताः रामः
सीता
ओके सीता ओके रामः सीता
लक्ष्मणञ्च
लक्ष्मणः च
लक्ष्मणञ्च नो
नो इफ् यु से लक्ष्मणञ्च दे आर् टेकिङ्ग् लक्ष्मण एस् वेल् वाट् डु यु वाण्ट् टु से ऐ सेड् रामः सीता लक्ष्मणः ग्रन्थः ग्रन्थः मीन्स्
बुक्
बुक् ग्रन्थं यस् ग्रन्थः नयति इति एतानि पदानि एतानि पदानि उपयुज्य वाक्यं वदतु
So they are all reading that book, that Grantham, right?
No. Nayati, what does Nayati mean? Anyone?
Nayati carrying. I mean like carrying, right? Carrying. Taking.
Yes. Okay. Now say the sentence.
Okay. Rama, Sita, Lakshmana, Lakshmana. So, Grantham, Nayati.
Grantham, Nayati, va?
नयामि
नो अष्टमी अष्टमी
नयन्ति
नयन्ति रामः
रामः सी
रामः
नयन्ति
ग्रन्थं नयन्ति सो विन् यू से ग्रन्थं नयन्ति आल् त्री टेक् ओन्ली वन् बुक्
ओके
ओके
वी कुड्न्ट् हियर् द फुल् सेण्टेन्स् केन् यू प्लीज़् रिपीट् इट्
Shubhaji, go ahead. Can you say the sentence again?
Ramah, Sita, Lakshmanah cha, Grantham, Nayanti.
Grantham, Nayanti. When in the sentence, Grantham, you said Ekavachanam, which means all the three are taking one book. Is that okay?
Grantani, Grantani, Nayanti.
Not Granthani, what should it be?
Granthan Nayanti.
Granthan Nayanti. Granthan Nayanti. Bahuvachanam. Okay? If,
okay.
If all the three are carrying only one book, your sentence is correct.
Okay.
But more likely, you know, they carry more than one book, right? So, Granthan Nayanti. Wonderful.
Okay.
Is this clear?
Sorry, no, sorry, yeah. I have a question. Is it Granthan or Granthani? Because for this thing, Napumsaka Linka...
No. Granthaha. It's a Pumlinga Pada. Granthaha.
Oh, sorry. Okay.
Okay. Can everyone again? Please be up. Okay, thank you. Okay. Now, Navami. सेवकः सेवकः अस्तु सेवकः त्वं अस्तु न सेवका अहं सेवकः माता वृक्षः सिञ्चति
अहं
सेवकः
माता ऐ एम जस्ट ट्राइंग टू फिगर आउट द वर्ड्स हियर वृक्षः And then what? Sinchati?
Sinchati. Sinchati means to water it.
Oh. Okay.
Forget. Aha. Instead, let's say Ravihi. Okay. Ravihi, Mata, Pita, Rukshaha, Sinchati.
So, no Sevaka, no Aham?
See, that doesn't matter. Sevakaha Bhavatu. Sevakaha, Ravihi, Mata, Pita, Vrukshaha, Sinchati.
Mata, Vrikshe, like watering, watering the plants, right?
Yeah.
Mata vrukshe sinchati
vriksham.
Why is it vrukshe?
Okay, we are doing vriksham sinchati.
Vriksham sinchati va. Why would that be in Ekavachanam? Sinchati.
Okay, because I thought when you asked me to switch from Vrikshe to Vriksham, I thought we talking about one tree, but I think sure. I lost somewhere. Yeah.
No, they're definitely watering one tree. That's satyameva. Kintu atra karyam kati janaha kurvanti. There's more than two people doing the work here, right? So the karta... Oh,
Karta, the subject is Mata, right?
Not just Mata, I said Mata, Sevakaha, Pita, Ravihi. We have four subjects here.
Okay, so I crossed out those other words after you changed it originally.
Oh, no, never mind. Okay. Yeah, four. We have four here, four subjects. Okay. So?
Okay, Sevakaha, Mata, Cha, Vriksham. Sinchanti
Mata Sevakaha पिता च वृक्षं सिञ्चन्ति अथवा माता सेवकः वृक्षं सिञ्चतः. Is this clear?
Okay, be, yeah, got it, yeah.
वृक्षाय सिञ्चन्ति, यु केनाट् रैट् लैक् दट्
नो वृक्षम्
ओके
आङ्ग्लभाषायां वृक्ष वाटर् फार् द प्लाण्ट्स् तथा संस्कृतभाषायां तथा नास्ति. अस्तु गोविन्दः अस्तु गोविन्दः जनाः अस्तु गोविन्दः जनाः पश्यति इति एतानि पदानि गोविन्दः जनाः पश्यति. वल्लीजि
वाट् वास् वाट् आर् द वर्ड्
गोविन्दः जनाः पश्यति
गोविन्दः गोविन्दः जनान् पश्यति.
वण्डर्फुल् गोविन्दः जनान् पश्यति वण्डर्फुल्. शीतल्जि अयुदे शीतल् ओके शी मैट् हव् लेफ्ट् नो शी इस् हियर् ओके शी इस् इन्ट् रेस्पाण्डिङ्ग् दट्स् ऐ हाड् फोर् लास्ट् आन् द लिस्ट्. एनी क्वशन् सो फार् द्वितीया भक्ति
Shetty, out of this thing, I think, what software we are using for typing in Sanskrit? I don't
think we are typing. That we'll get to that after the, in a few minutes. In general, first, do we have any questions in Vidya Bhakti?
No.
Is this clear?
No. Yeah.
Okay. So, Vidya Bhakti is the most important Vibhakti. Okay. So everyone please focus. Next week we the first 30 minutes we'll have a test on Dvitiya Bhakti.
Okay. Is it Kahoot again?
Kahoot or something, I'll give you some words, we will see. But there will be the test on Dvitiya Bhakti. It is very very important. Because understand, if you just say sentences like Aham Vrukshaha Pashyami, because Aham and Vrukshaha both are in Prathama Vibhakti, it means aham, my, I am the tree, is looking.
I the tree is looking.
I the tree is looking. Something. Okay. Okay? The sentences will be very, very awful if you make mistakes in Dvitiya Bhakti.
Okay.
Okay. Next week, we will have a quiz on Dvitiya Bhakti. So it will be more like, you know, I'll give you a set of words. Okay. And I want you to actually meaningfully construct a sentence. It will be something like, I'll give you four words, just like what I actually did now. I will write four sentences. Okay? I want you to pick the right sentence. Or okay. I'll show you a picture. Okay? And I will write four sentences. I want you to pick the correct sentence there. That is, you don't have to write any. You just have to pick the correct sentence for now.
Okay.
Okay.
So Shekhar ji,
just 1 minute. Let me. Sure, sure. Just give me 1 minute. Let me stop this one. We don't. I don't have anything else. Okay.
Can you